इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचको युवराज भट्टराई। आदौ मुख्य वार्ताः। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना आतंकवादं विरुध्य कृतं वैश्विक एकतायाः आह्वानम्। अमुना चीनदेशे आयोजिते शंघाई सहयोग संघटनस्य शिखर सम्मेलने प्रोक्तं यत् आतंकवादे मानदण्डद्वयम् अस्वीकार्यम्। एससीओ घोषणापत्रे पहलगाम आतंक्याक्रमणस्य कट्वालोचना कृता, सहैव आतंकवादं विरुध्य प्रदत्तः संयुक्त सन्देशः। सदस्य देशैः क्षेत्रीय सहयोगेषु नवाचारेषु च भारतस्य वर्धमानं योगदानं मान्यतां नीतम्। भारतीय ऋतु विज्ञान विभागेन अद्य हिमाचल प्रदेशस्य उत्तराखण्डस्य च कतिपय स्थानेषु कृता प्रचण्ड वृष्टेः भविष्यवाणी। अपि च अफगानिस्तानस्य कुनार प्रान्ते समागते भीषण भूकम्पे न्यूनान्यूनाः 800 जनाः मृताः, सार्ध 2000 जनाश्च सूच्यन्ते व्रणिताः। अथ वार्ताः विस्तरेण। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य प्रावोचत् यत् आतंकवाद विषये मानदण्डद्वयम् अस्वीकार्यमस्ति। चीनस्य तियान्जिन मध्ये आयोजिते एससीओ इति शंघाई सहयोग संघटनस्य शिखर सम्मेलने निजे वक्तव्ये प्रधानमन्त्री मोदी आतंकवादः मानवतायै एकं बृहत् समाह्वानम् अस्ति इति प्रत्यपादयत्। असौ प्रोक्तवान् यत् आतंकवादस्य सर्वाणि अपि रूपाणि निन्दनीयानि सन्ति। श्रीमोदी न्यगादीत् यत् भारतं विगतेभ्य चतुर्भ्य दशकेभ्य आतंकवादस्य समस्यां सम्मुखीकुरुते। अत्रावसरे अमुना पहलगाम आतंक्याक्रमणस्यानन्तरं भारतेन साकं ऐक्यबद्धता प्रकटन परेभ्य सर्वेभ्य देशेभ्य आभारभार अपि व्यक्तीकृत।
और कितने बच्चे अनाथ हो गए। हाल ही में हमने पहलगाम में टेररिज्म का बहुत ही घिनौना रूप देखा। इस दुख की घड़ी में जो मित्र देश हमारे साथ खड़े रहे, मैं उनका आभार व्यक्त करता हूं।
प्रधानमन्त्री एतस्मिन् विषये सबलं प्रोक्तवान् यत् भारतं एससीओ इति शंघाई सहयोग संघटनस्य सदस्यत्वेन सर्वदैव सकारात्मक भूमिकां निर्वहति। असौ अग्रे अवदत् यत् भारतस्य दृष्टिः नीतिश्च त्रिषु प्रमुखस्तम्भेषु सुरक्षा सम्पर्कः अवसरश्चेत्येतेषु आधारिता अस्ति।
और साइबर सिक्योरिटी जैसे समकालीन चुनौतियों से निपटने के लिए 4 नए केंद्र बनाए जा रहे हैं। वैश्विक संस्थानों में रिफॉर्म्स के लिए एससीओ सदस्य आपसी सहयोग बढ़ा सकते हैं। संयुक्त राष्ट्र की 80वीं वर्षगांठ के अवसर हम एकमत होकर यूएन रिफॉर्म का आह्वान कर सकते हैं। एससीओ मल्टीलेटरलिज्म और इंक्लूसिव वर्ल्ड ऑर्डर का मार्गदर्शक बन सकता है।
प्रधानमन्त्री मोदी शिखर सम्मेलनस्य अवसरे रूसदेशीय राष्ट्रपतिना व्लादिमीर पुतिन इत्यमुना चीनदेशीय राष्ट्रपतिना च शी जिनपिंग इत्यनेन साकमपि विचार विनिमयं विहितवान्। प्रधानमन्त्री नरेन्द्रमोदी रूसराष्ट्रपतिः व्लादिमीर पुतिनस्य अद्य द्विपक्षीय सहयोग विषये चर्चां कृतवन्तौ, यत्र खलु वित्तीय क्षेत्राणि ऊर्जा क्षेत्राणि च समाविष्टानि आसन्। उभाभ्यामपि नेतृभ्याम् एतेषु क्षेत्रेषु निरन्तरं समेधमानानां द्विपक्षीय सम्बन्धानां प्रसंगे सन्तोषः प्रकटितः। चीनस्य तियान्जिन मध्ये आयोजितात् एससीओ शिखर सम्मेलनात् पृथक् उभावपि नेतारौ द्वैपाक्षिकं मन्त्रणोपवेशनम् आचरितवन्तौ। उभाभ्यामपि नेतृभ्याम् क्षेत्रीय विषयेषु वैश्विक विषयेषु चापि परिचर्चा विहिता, यत्र हि युक्रेन सम्बद्धाः घटनाक्रमाः अपि सम्मिलिताः आसन्। द्वावपि नेतारौ विशिष्टं विशेषाधिकार प्राप्तं च कार्यनीतिकं सहमत्यम् अतोऽपि सुदृढीकर्तुं नैजं समर्थनं सामरेडितवन्तौ। प्रधानमन्त्री मोदी राष्ट्रपतये पुतिनाय इदमपि सन्दिष्टवान् यत् सः अस्य वर्षस्य अवसाने भारते आयोक्ष्यमाणे 23वें वार्षिक शिखर सम्मेलने तस्य स्वागतार्थं प्रतीक्षापरः वर्तते। स्वीये औद्घाटनिक वक्तव्ये श्रीमोदी उक्तवान् यत् भारत रूसदेशौ सर्वदा कठिने प्रतिकूल समयेपि स्कन्धेन स्कन्धं संयोज्य मिलित्वा स्थितौ वर्तेते। अनेन प्रोक्तं यत् उभयोः देशयोः निकटता सहयोगार्थं विश्वशान्ति सन्धारणार्थं स्थिरतायै समृद्धये चापि महत्वपूर्णा वर्तते।
दिसंबर में हमारी 23वीं समिट के लिए 140 करोड़ भारतीय उत्सुकता पूर्वक आपका इंतजार कर रहे हैं। एसएलजी हमारे स्पेशल एंड प्रिविलेज स्ट्रेटेजिक पार्टनरशिप की गहराई और व्यापकता का परिचायक है। कठिन से कठिन परिस्थितियों में भी भारत और रूस हमेशा कंधे से कंधा मिलाकर चले हैं। हमारा करीबी सहयोग न केवल दोनों देशों के लोगों के लिए बल्कि वैश्विक शांति, स्थिरता और समृद्धि के लिए महत्वपूर्ण है।
प्रधानमन्त्री प्रोदैरयत् यत् नवदिल्ली मॉस्को च निरन्तरं युक्रेन संघर्षे चर्चारतौ स्तः। असौ सद्यो विहितानां सर्वेषामपि शान्ति सन्धारण प्रयासानां स्वागतमपि कृतवान्। साकमेव मोदिना विषयम् अमुं सन्दृभ्य आशाभिव्यक्ता यत् सर्वेऽपि पक्षाः रचनात्मकरूपेण अग्रे वर्धिष्यन्ते। अत्रान्तरे प्रधानमन्त्री चीनस्य यात्रां सम्पाद्य दिल्लीं प्रतिनिवृत्तः अस्ति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newzoneair.gov.in इत्यत्र अथ च newzoneair मोबाइल एप इत्यत्र अपि श्रुतिगम्यो भविष्यति। संघाई सहयोग संघटनस्य घोषणायां पहलगाम आतंक्याक्रमणस्य भृशं भर्त्सना विहितास्ति। साकमेव आतंकवादं विरुध्य एकः स्पष्टः एकीभूतः सन्देशः अपि प्रदत्तः अस्ति। राज्यानां परिषदाम् उपवेशनस्य अनन्तरं प्रख्यापितायां घोषणायां भारतस्य समेधमानं योगदानं क्षेत्रीय सहयोगं नवाचारं चापि मान्यतां सन्निताः सन्ति। ध्येयमस्ति यत् तियान्जिन घोषणा आतंकवादं विरुध्य सामूहिक प्रयासानां सुदृढीकरण प्रसंगे एकः महत्वपूर्णः पदक्षेपः अस्ति। सहैव एषा घोषणा एससीओ संघटनस्य अन्तर्गतं क्षेत्रीय सहयोगस्य साकारीकरणे भारतस्य भूमिकायाः महत्वमपि सन्दर्शयति। घोषणायाम् एतदपि सामरिडितमस्ति यत् आतंकवादं पार्थक्यवादं उग्रवादं च विरुध्य युद्धस्य प्रतिबद्धता सुदृढा अस्ति। एससीओ देशैः भाटकेन क्रीत समूहानाम् उपयोगः अस्वीकृतः। चरमपन्थस्य संकटानां सम्मुखीकरणे च राज्यानां संप्रभु अधिकारे उत्तरदायित्वे च बलं प्रदत्तमस्ति। भारतीय ऋतुविज्ञान विभागेन हिमाचलस्य ऊनानगराय सुरक्षादृशा रक्तसंचेतना प्रकाशितास्ति। ध्येयमस्ति यत् हिमाचलप्रदेशस्य हमीरपुर, बिलासपुर, कांगड़ा, मंडी, सिरमौर चेति षट्सु जनपदेषु अतिवृष्टिः समजायते। दिवसद्वयात् अनारतं प्रवृत्तया प्रबलवृष्ट्या राज्यस्य बहुषु स्थलेषु भूस्खलनानि गृहनिपाताश्च अभवन्। अधुना यावत् तत्र भूस्खलनेन पञ्च राष्ट्रिय राजमार्गाः 80+700 मार्गाश्च अवरुद्धाः सूच्यन्ते। एतदतिरिच्य 100+2000 मिताः ट्रान्सफार्मर इत्याख्याः विद्युत् परिवर्तकाः अपि विनष्टाः सन्ति। 65+300 मिताः पेयजल योजनाः चापि बाधिताः जाताः सन्ति। वृष्टि सम्बद्धासु घटनासु मृतकानां संख्या साम्प्रतं यावत् 20+300 जाता अस्ति। शिमला जनपदे एव विगतासु 24 होरासु वृष्टिकारणात् भवनस्य ध्वंसनेन 4 जनाः मृताः सूच्यन्ते। अत्रान्तरे अधिकारिभिः जनाः नदीतीरेभ्य दूरे स्थातुम् अध्यर्थिताः सन्ति। अफगानिस्तानस्य कुनार प्रान्ते समागते 6 तीव्रतायुते भूकम्पे न्यूनान्यूनम् 800 जनाः पञ्चतां प्राप्ताः सन्ति। तत्रैव 2500 मिताः जनाः च व्रणिताः सन्ति। अफगान प्रशासनेन एतत् पुष्टीकृतमस्ति। तत्रत्य स्वास्थ्य मन्त्रालयेन प्रतिपाद्यते यत् सुरक्षोद्धार कार्यं निरन्तरं प्रवर्ततेतराम्। अथ च कुनार, नंगरहार, काबुल चेति क्षेत्रेषु चिकित्सादलानि भूकम्प प्रभावित क्षेत्रेषु जनानां सहयोगार्थं प्राप्तानि सन्ति। अत्रावसरे प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य अफगानिस्ताने भूकम्पेन सञ्जाते जनहानि विषये शोक संवेदनां प्राकाशयत्। प्रोक्तवान् च यत् भारतं सर्वसम्भवां मानवीयां सहायतां कर्तुं सर्वथा सर्वता च तत्परम् अस्ति। अमुना मृतकानां परिजनान् प्रति संवेदनाः प्रकाशिताः। सहैव व्रणितानां शीघ्रमेव स्वास्थ्यलाभस्य कामनापि श्रीमोदिना कृता।